तस्या सखीभ्याम् प्रणिपात पूर्वम् स्वहस्तलून शिशिरात्ययस्य व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः
तस्या इति तस्याः पार्वत्याः सखीभ्याम् पूर्वोक्ताभ्याम् स्वहस्तेन लूनः उपचितः पल्लवभङ्गभिन्नः किसलय शकलमिश्रः शिशिरात्ययस्य वसन्तस्य सम्बन्धी पुष्पोच्चयः पुष्पप्रकारः हस्तादाने चेरस्तेये इति घञ्विषयकत्वात् कवीनाम् अयम् प्रामादिकः प्रयोगः इति वल्लभः त्र्यम्बकपादमूले प्रणिपातपूर्वम् नमस्कारपूर्वकम् व्यकीर्यत विक्षिप्तः
उमापि नीलालकमध्यशोभी विस्रंसयन्ती नवकर्णिकारम् चकारकर्णच्युतपल्लवेन मूर्ध्ना प्रणामम् वृषभध्वजाय
उमेति उमापि नीलालकानाम् मध्ये शोभत इति तथोक्तम् अलकन्यस्तमित्यर्थः नवकर्णिकारम् विस्रंसयन्ती कर्णाच्युतः पल्लवः यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामम् चकार क्रियाग्रहणात् सम्प्रदानत्वम्
अनन्यभाजम् पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम्
अनन्येति सा कृतप्रणामा देवी भवेन हरेण अन्याम् न भजतीति तम् अनन्यभाजम् भजोऽण्विः इति ण्विप्रत्ययः सर्वनाम्नः वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः पतिम् आप्नुहीति तथ्यम् सत्यमेव अभिहिता उक्ता उत्तरत्र तथैव सम्भवादिति भावः अभिदधातेः ब्रुवर्थस्य दुहादित्वात् अप्रधाने कर्मणि तः तथा हि ईश्वरव्याहृतयः महापुरुषोक्तयः कदाचिदपि लोके भुवने लोकस्तु भुवने जने इत्यमरः विपरीतम् विसंवादिनम् अर्थम् अभिधेयम् न पुष्णन्ति न बोधयन्तीत्यर्थः
कामस्तु बाणावसरम् प्रतीक्ष्य पतङ्गवद्वह्नि मुखम् विविक्षुः उमासमक्षम् हरबद्धलक्ष्यः शरासनज्याम् मुहुराममर्श
काम इति कामस्तु बाणावसरम् प्रतीक्ष्य उमासन्निधानात् अजमेव बाणप्रयोगसमयः इति ज्ञात्वा पतङ्गेन तुल्यम् पतङ्गवत् शलभवत् समौ पतङ्गशलभौ इत्यमरः तेन तुल्यम् क्रियाचेद्वतिः इति वतिप्रत्ययः वह्निमुखम् विविक्षुः प्रवेष्टुम् इच्छुः विशतेः सन्दन्तात् उप्रत्ययः उमायाः समक्षम् अक्ष्णः समीपम् उमासमक्षम् अव्ययीभावे शरत्प्रभृतिभ्यः इति समासान्तः अच् प्रत्ययः हरे बद्धलक्ष्यः सन् शरासनस्य ज्याम् मौर्वीम् मुहुः आममर्श परामृष्टवान्।
अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचाकरेण विशोषिताम् भानुमतो मयूखैः मन्दाकिनी पुष्करबीजमालाम्।
अथेति अथ गौरी तपः अस्य अस्तीति तपस्वी अस्माया मेधास्रजो विनिः इति विनिप्रत्ययः। तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतः अंशुमतः मयूखैः विशोषिताम् मन्दाकिन्याः पुष्कराणि पद्मानि तेषाम् बीजानि तेषाम् मालाम् जपमालिकाम् उपनिन्ये समर्पितवती।
प्रतिग्रहीतुम् प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च सम्मोहनम् नाम च पुष्पधन्वा धनुष्यमोघम् समधत्तबाणम्।
प्रतिग्रहीतुमिति त्रिलोचनश्च प्रणयिप्रियत्वात् अर्थिप्रियत्वात् ताम् अक्षमालाम् प्रतिग्रहीतुम् स्वीकर्तुम् उपचक्रमे। पुष्पम् धनुः यस्य सः पुष्पधन्वा कामश्च वा संज्ञायाम् इत्यनङ्गादेशः। सम्मोह्यते अनेनेति सम्मोहनम् नाम नामेति प्रसिद्धौ। अमोघम् बाणम् सायकम् धनुषि समधत्त संहितवान्।
हरस्तु किञ्चित् परिलुप्तधैर्यः चन्द्रोदयारम्भ इवाम्बुराशिः उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि।
हर इति हरस्तु हरः अपि चन्द्रोदयारम्भे अम्बुराशिरिव किञ्चित् ईषत् परिलुप्तधैर्यः न तु प्राकृतजनवत् अत्यन्तलुप्तधैर्य इति भावः। बिम्बफलतुल्यः अधरोष्ठः यस्य तस्मिन् उमामुखे विलोचनानि व्यापारयामास। त्रिभिरपि लोचनैः साभिलाषम् अद्राक्षीत् इत्यर्थः। एतेन भगवतः रतिभावोदयः उक्तः।
विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन।
विवृण्वतीति शैलसुतापि स्फुरद्बालकदम्बकल्पैः विकसत्कोमलनीपसदृशैः पुलकितैरित्यर्थः। ईषदसमाप्तौ इत्यादिना कल्पप्रत्ययः। अङ्गैः भावम् प्रत्याख्यम् विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडाविभ्रान्तनेत्रेण मुखेन असाचि साचि सम्पद्यमाना साचीकृता तिर्यकृता। तिर्यगर्थे साचितिरः इत्यमरः। तस्थौ ह्रिया मुखम् साचीकृत्य स्थिता इत्यर्थः। न केवलम् हरस्यैव देव्या अपि उदितः रतिभाव इति भावः।
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्बलवन्निगृह्य हेतुं स्वचेतो विकृतेर्दिदृक्षुः दिशामुपान्तेषु ससर्ज दृष्टिम्।
अथेति अथ अयुग्मानि नेत्राणि यस्य सः अयुग्मनेत्रः त्रिनेत्रः वशित्वात् जितेन्द्रियत्वात् इन्द्रियक्षोभम् पूर्वोक्तम् इन्द्रियविकारम् पुनः बलवत् दृढम् निगृह्य निवार्य स्वचेतो विकृतेः स्वचित्तविकारस्य हेतुम् कारणम् दिदृक्षुः द्रष्टुमिच्छुः दिशाम् उपान्तेषु दृष्टिम् ससर्ज प्रसारयामास।
स दक्षिणापाङ्गनिविष्टमुष्टिम् नतांसम् आकुञ्चितसव्यपादम् ददर्शचक्रीकृतचारुचापम् प्रहर्तुमभ्युद्यतम् आत्मयोनिम्।
स इति सः भगवान् दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिः यस्य तम् नतांसम् आकुञ्चितः सव्यपादः यस्य तम् आलीढाख्यस्थानके स्थितमित्यर्थः। चक्रीकृतचारुचापम् मण्डलीकृतसौम्यकोदण्डम् प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम् मनोभवम् ददर्श। आलीढलक्षणमाह यादवः स्थानानि धन्विनाम् पञ्च तत्र वैशाखमस्त्रियाम् वितस्त्यन्तरगौपादौ मण्डलम् तोरणाकृति समानौ स्यात् समपदम् आलीढम् पदमग्रतः दक्षिणम् वाममाकुञ्च्य प्रत्यालीढम् विपर्यये इति।
तपः परामर्श विवृद्धमन्योः भ्रूभङ्गदुष्प्रेक्ष्य मुखस्य तस्य स्फुरन्नुदर्चिः सहसा तृतीयात् अक्ष्णः कृशानुः किल निष्पपात।
तप इति तपः परामर्शेन तपसः आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेन दुष्प्रेक्ष्यम् दुर्दर्शम् मुखम् यस्य तस्य हरस्य तृतीयात् अक्ष्णः स्फुरन् उद्दीप्यमानः उदर्चिः उद्भूतज्वालः कृशानुः अग्निः सहसा अतर्कितमेव अतर्किते तु सहसा इत्यमरः निष्पपात किल निश्चक्राम खलु।
क्रोधम् प्रभो संहर संहरेति यावद्गिरः खे मरुताम् चरन्ति तावत् स वह्निर्भवनेऽत्र जन्मा भस्मावशेषम् मदनम् चकार।
क्रोधमिति हे प्रभो स्वामिन् क्रोधम् संहर संहर निवर्तय निवर्तय चापले द्वे भवत इति वक्तव्यम् इति वार्तिकेन द्वित्वम् सम्भ्रमेण वृत्तिः चापलम् इति काशिका इत्येवम् मरुताम् देवानाम् गिरः वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत् तत्कालमेव भवस्य नेत्राज्जन्म यस्य सः भवनेत्रजन्मा अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः इति वामनः। स वह्निः मदनम् भस्मैव अवशेषः यस्य तम् भस्मावशेषम् चकार ददाहेत्यर्थः।
तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम् अज्ञात भर्तृव्यसना मुहूर्तम् कृतोपकारे वरतिर्बभूव।
तीव्रेति तीव्राभिषंग प्रभवेण अतिदुस्सहाभिभव संभवेन अभिषंगस्त्वभिभवे संग आक्रोशनेऽपि च इति वैजयन्ती। इन्द्रियाणाम् चक्षुरादीनाम् वृत्तिम् व्यापारम् संस्तम्भयता प्रतिबध्नता मोहेन मूर्च्छया कर्त्रा रतिः मदनभार्या मुहूर्तम् अज्ञातम् भर्तृव्यसनम् भर्तृनाशः यया सा तथोक्ता सती कृतोपकारेव बभूव। सहसा दुःखोपनिपातात् मुमूर्च्छेत्यर्थः। मोहेन दुःखसंवेदनाभावात् तस्य उपकारकत्वोक्तिः।
तमाशु विघ्नम् तपसस्तपस्वी वनस्पतिम् वज्र इवावभज्य स्त्रीसन्निकर्षम् परिहर्तुमिच्छन् अन्तर्दधे भूतपतिः स भूतः।
तमिति तपस्वी तपोनिष्ठः भूतपतिः शिवः तपसः विघ्नम् अन्तरायभूतम् तम् कामम् आशु वज्रः अशनिः वनस्पतिम् वृक्षम् इव अवभज्य भङ्क्त्वा स्त्रीसन्निकर्षम् स्त्रीसन्निधानम् परिहर्तुम् इच्छन् तस्य अनर्थहेतुत्वादिति भावः। सभूतः सगणः सन् अन्तर्दधे।
शैलात्मजापि पितुः उच्छिरसोऽभिलाषम् व्यर्थम् समर्थ्य ललितम् वपुरात्मनश्च सख्यो समक्षमिति च अधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित्।
शैलात्मजेति शैलात्मजा पार्वती अपि उच्छिरसः उन्नतशिरसः महतः पितुः अभिलाषम् हरः वरोऽस्त्विति मनोरथम् ललितम् सुन्दरम् आत्मनः वपुश्च व्यर्थम् निष्फलम् समर्थ्य विचार्य सख्योः समक्षम् पुर इति च हेतुना अधिकम् जातलज्जा समानजनसमक्षम् अवमानस्य अतिदुःसहत्वादिति भावः। शून्या निरुत्साहा सती कथञ्चित् कृच्छ्रेण भवनस्य अभिमुखी जगाम।
सपदि मुकुलिताक्षीम् रुद्रसंरम्भभीत्या दुहितरमनुकम्प्याम् अद्रिरादाय दोर्भ्याम् सुरगज इव बिभ्रत्पद्मिनीम् दन्तलग्नाम् प्रतिपथ गतिरासीत् वेगदीर्घीकृताङ्गः।
सपदीति सपदि अद्रिः हिमवान् रुद्रस्य संरम्भात् कोपात् भीत्या संरम्भः सम्भ्रमे कोपे इति विश्वः। मुकुलिताक्षीम् निमीलितनेत्राम् बहुव्रीहौ सत्यक्ष्णोः स्वाङ्गात् शच् इति शच् प्रत्ययः। षिद्गौरादिभ्यश्च इति ङीष्। अनुकम्पितुम् अर्हाम् अनुकम्प्याम् रुहलोर्ण्यत् इति ण्यत् प्रत्ययः। दुहितरम् दोर्भ्याम् आदाय दन्तयोर्लग्नाम् पद्मिनीम् नलिनीम् बिभ्रत् सुरगज इव वेगेन रयेण दीर्घीकृताङ्गः आयतीकृतशरीरः सन् पन्थानम् प्रति गता मार्गानुसारिणी गतिः यस्य सः प्रतिपथगतिः आसीत् पन्थानम् अनुसृत्य जगामेत्यर्थः इति श्रीमन्महामहोपाध्याय कोलाचलमल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये मदनदहनो नाम तृतीयः सर्गः।